सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. मतयो यत्र गच्छन्ति तत्र गच्छन्ति वानराः, शास्त्राणि यत्र गच्छन्ति तत्र गच्छन्ति वैनराः. इत्युक्ते मनः यत्र गन्तुमिच्छति तत्र ये जनाः धावन्ति ते एव वानराः. परन्तु शास्त्राणि यत्र गच्छन्ति अपि च श्रुतयः यत्र गच्छन्ति अथवा विवेकिनः पुरुषाः यत्र गच्छन्ति तत्र ये जनाः गच्छन्ति ते एव मानराः. स एव नरवानरयोः भेदः. एतत् अस्माभिः अवगन्तव्यम्. अपि च वयं सर्वे अपि सम्यक् संस्कृतम् अधीत्य शास्त्राणि यत् बोधयन्ति तत् सम्यक् अवगम्य ज्ञानार्थं प्रयत्नं कुर्मः चेत् तदा वयं न केवलम् उन्नताः अपि तु उत्तमाः अपि भवितुं शक्ष्यामः. तस्य कृते प्रथमं सोपानम् एव भाषाध्ययनम्. अतः वयं सर्वे मिलित्वा अत्र संस्कृतभाषायाः अवगमनार्थं किञ्चित् प्रयत्नं कुर्मः. अहं चिन्तयामि भवन्तः सर्वे संस्कृतभाषाध्ययनार्थं सिद्धाः. उत्तमम्. पुनः एकवारं स्वागतं. विलम्बेन केनापि आगतं वा?
नमस्ते भगिनि.
स्वागतं स्वागतं भगिनि. अद्य वयं किं कुर्मः इत्युक्ते गते सप्ताहे वयं विशेषक्रियापदानां विषये किञ्चित् अभ्यासं कृतवन्तः. अपि च कति कुत्र इति पदद्वयमपि वयम् अधुना जानीमः. इत्युक्ते कति अथवा कुत्र तस्य उपयोगं कथं कुर्मः इति वयं ज्ञातवन्तः. अद्य इतोपि नूतनानि पदानि ज्ञास्यामः. इत्युक्ते प्रथमतया किञ्चित् कालपर्यन्तं वयं गृहपाठविषये किञ्चित् चिन्तनं कृत्वा अनन्तरम् अभ्यासपुस्तकं पठामः. प्रथमतया अहं गृहपाठं दत्तवती. गृहपाठविषये किञ्चित् पश्यामः. अत्र रघुपति आचार्यमहोदय, भवान् वदति वा अत्र गृहपाठविषये अलसः बालकः इति कथायाः नीतिः का इत्यस्मिन् विषये कानिचन वाक्यानि श्रावयन्तु.
महोदय, समयः अमूल्यम् अस्ति, अतः वृथा कालयापनं न करणीयम्.
उत्तमम्.
प्रकृतिः सर्वदा कार्यरता भवति अस्ति या वा अस्ति. जगति सर्वे प्राणिनः क्रियारताः सन्ति, स्वधर्मं पालयन्ति च. तान् अवलोक्य वयं बहु किमपि ज्ञानं प्राप्तुं शक्नुमः. बालकः प्राणिनः विलोक्य ज्ञानं प्राप्तवान्. अतः एतत् ज्ञायते यत् कः बोधयति इति न प्राधान्यं, परन्तु किं बोधयति एव प्राधान्यम्.
पुनः एकवारम्. उत्तमं वाक्यं महोदय. पुनः एकवारं, केवलम् अहं पुनः एकवारं श्रोतुमिच्छामि.
बालकः प्राणिनः विलोक्य ज्ञानं प्राप्तवान्. अतः एतत् ज्ञायते यत्
महोदय, अत्र बालकः अत्र विलोक्य इति पदं ल्यबन्तपदम्. अत्र प्राणिनः द्वितीयाविभक्ति बहुवचनं वक्तुमिच्छति वा अथवा
द्वितीयविभक्ति
प्राणिनं द्वितीयाविभक्ति एकवचनं. परन्तु अत्र प्राणी इति अत्र प्राणी इति पदं बहुवचनं. यदि भवान् बहुवचनं वक्तुम् इच्छति चेत् बहुवचनमेव समीचीनं. नो चेत् एकवचनं तत्तु
बहुवचनं बहुवचनम्
वदतु महोदय.
न अहं बहुवचनस्य प्रयोगं कृतवान्, अतः प्राणिनः एव सम्यक् वा? प्राणिनः द्वितीयविभक्ति बहुवचन
अत्र नकारान्तपदं भवान् जानाति वा? नकारान्तपदं यदि प्राणिनम् इति वदामश्चेत् एकवचने प्राणी, प्राणिनौ, प्राणिनः, प्राणिनौ
पुनः प्राणिनौ, प्राणिनः, प्राणिनः.
उत्तमम्, उत्तमं.
प्राणिनः विलोक्य ज्ञानम्
उत्तमम् इत्युक्ते प्राणिनः इति तत्र प्रथमविभक्ति अपि च द्वितीयविभक्तिरूपाणि समानानि. उत्तमं,
समानानि.
अनन्तरं वदतु.
अतः एतत् ज्ञायते यत् कः बोधयति इति न प्राधान्यं, परन्तु किं बोधयति एव प्राधान्यम्. यथा यथा आदिशङ्कर अपि चाण्डालात् ब्रह्मज्ञानं प्राप्तवन्तः. तं चाण्डालं स्वस्य गुरु इव भाव्य नमस्कृतवन्तः.
इत्युक्ते अत्र आदिशङ्करः इति तत्र एकवचनरूपमेव,
आदिशङ्कराचार्य बहुवचन, बहुवचन.
उत्तमं. न अत्र किमर्थं अहं चिन्तयामि, भवान् किमर्थं बहुवचनरूपं तव तु बहुवचनरूपं योजितवान् इत्युक्ते तत्र आदरसूचनेन आदरसूचनार्थम्
एतदर्थम्.
उत्तमम्, उत्तमं, तावदेव. तत्र केवलम् आदिशङ्करः इति एकवचनमेव, परन्तु गौरवसूच आदरसूचनार्थं बहुवचनरूपं सम्यक् भवति. उत्तमम्. इतोपि वाक्यानि सन्ति वा?
यदि वयम् अन्यान् सूक्ष्मतया अवलोकयामः तर्हि अन्येभ्यः उत्तमगुणान् प्राप्तुं शक्नुमः.
उत्तमम्.
बालकः अलसः अस्ति चेदपि बुद्धिमान् अस्ति, यतः सः प्रकृतिं दृष्ट्वा अचिरादेव स्वस्य दुर्गुणान् परित्यक्तवान्.
उत्तमम्, उत्तमम्. उत्तमम्,
यथा
उत्तमानि वाक्यानि महोदय, धन्यवादः. अत्र वंशीसुधा भगिनी भवती वक्तुमिच्छति वा इतोपि वाक्यानि कथायाः?
महोदय, अहं प्रथमतया ईमेल् पत्रे बालकः गृहपाठं न अस्ति महोदय, इदानीमेव प्रेषितवती महोदय. वर्षाकाल इति
चिन्ता मास्तु,
अहं न पश्यामि इदानीमेव अहं पश्यामि. क्षम्यताम्, अहं वर्षाकालः इति लेखबन्धनं कृतवती, परन्तु अलसः बालकः न कृतवती भगिनी.
अस्तु भगिनी, चिन्ता मास्तु.
क्षम्यतां. ईमेल् अस्ति भगिनी? अस्ति वा नास्ति वा भगिनी? मम दृष्टि सम्यक् अस्ति वा नास्ति अहं न चिन्तयामि.
अत्र केवलं पृच्छामि, यदि भवती अलसः बालकः इति कथां जानाति चेत्, पठितवती चेत् एकं वा वाक्यद्वयं वा वदतु.
इदानीमेव वदामि. अलसत्वेन वयं कार्यं विलम्बः जातः. बालकौ अलसः शत्रु इव अस्ति. बालकः समयः बहु मूल्यम् अस्ति. अहं चिन्तित्वा अहं वदामि.
भगिनी चिन्तयतु, अत्र चिन्तयतु. अत्र अस्माकं कार्यम् अस्ति सम्यक् रीत्या व्याकरणं पठनीयम्. अत्र अस्माकं कार्यं सम्यक् व्याकरणम् अधीत्य सम्यक् रीत्या वाक्यरचनं करणीयं, तदेव अस्माकं कार्यं. भवती चिन्तयतु, एकं वाक्यम् उत्तमरीत्या निर्माय वदतु. किञ्चित् कालपर्यन्तं चिन्तयतु. अत्र कः वदति अथवा कः वक्तुमिच्छति? अत्र भूमा भगिनी भवती वदति वा?
आं भगिनि, प्रयत्नं करोमि, गृहपाठं नहि कृतवान् इति. वयं सर्वे आलसाः मा भूत् नाम मा व्याकरणं वयं स्वधर्मान् आचरित्वा स्वकार्याणि समये कृतं कर्तुं प्रयत्नं कुर्मः. तदनन्तरमेव वयं सफलां भवितुम् अर्हामः भवितुम् अर्हामः. आलसम्
इत्युक्ते आलस्येनैव वयं सफलाः भवितुम् अर्हामः.
अनन्तरम् आलस्यं सर्वे मनुष्याणां शत्रुः.
मनुष्याणां शत्रुः एव
शत्रुः.
मनुष्याः शत्रुः अलसत्वम् एव.
अलसत्वमेव ओके.
शत्रुः
अलसत्वमेव. उत्तमपदवीं प्राप्तुं समये स्वकार्यान् कर्तुम् इच्छामः चेत् उत्तमकार्यं साधयितुं शक्नुमः.
पुनः एकवारं तदेव वाक्यं श्रावयतु.
वयं समये
समयेन कार्याणि
सर्वकार्याणि कर्तुं शक्नुमः यदि आलस्यं दूरीकृत्वा
अत्र भगिनी अत्र किमर्थं
कार्यं करोमि चेत्
कुर्मः चेत् किं भवति
कुर्मः चेत् उत्तमानि कार्याणि कर्तुं शक्नुमः.
उत्तमानि कार्याणि कर्तुं शक्यते. उत्तमम्. अनन्तरं तावदेव वा.
पिपीलिकायाः उदाहरणं दृष्ट्वा बालकः स्वकार्यं समये निरतः आसीत् तथा सः प्राणी या इन्सेक्ट् क्षुद्रजन्तून् न पश्यति.
पुनः एकवारं तदेव वाक्यं
बालकः
अत्र सर्वे शृण्वन्तु. अत्र क्षुद्र इत्युक्ते अत्र लघु इति अर्थः. संस्कृतभाषायां क्षुद्र इत्युक्ते तत्र किमपि अपवित्रं किमपि नास्ति. क्षुद्र इत्युक्ते केवलं लघु प्राणिनं दृष्ट्वा एव वयं बहु किमपि ज्ञातुं शक्नुमः. वदतु भगिनि तदेव वाक्यं.
सः बालकः क्षुद्रप्राणीं दृष्ट्वा अपि कः उदाहरणं स्वीकृत्य स्वदोषान् अवगतवान्.
प्राणिनं दृष्ट्वा
क्षुद्रजन्तून् दृष्ट्वा. ओके.
उत्तमं भगिनि. अनन्तरं कः वद इतोपि अस्ति वा भगिनि?
इदानीम्
उत्तमं उत्तमानि वाक्यानि. जयन्त, जयन्त नाम्ना एक अन्यः नाम अस्ति, सः कः अत्र भवान् वदति वा महोदय? नाम जयन्त नाम्ना अन्यः अस्ति अस्माकं कक्षायाम्. अस्तु, अत्र शोभा भगिनी वदति वा भवत्याः पार्श्वे वदतु.
सर्वाणि जन्तवः सर्वदा स्वधर्मं पालनं कर्तुं शक्नुवन्ति. जनाः एव आलस्येन पीडितानि सन्ति.
उत्तमम्. अत्र अत्र स्थगयतु भगिनि. अत्र जन्तवः, जन्तवः इति पदं तत्र पुंलिङ्गपदम्, अतः सर्वे जन्तवः,
सर्वे जन्तवः, सर्वाणि नास्ति, सर्वे जन्तवः. यदि सर्वाणि वदतुम् इच्छामि चेत् सर्वाणि जन्तवान् जन्तवानि
न न भगिनि न ओके जन् अत्र अत्र शृणोतु जन्तुः जन्तुः यदा यथा
जन्तुः
गुरुः शब्दवत् तत्र गुरुः गुरु गुरवः
गुरवः
तथा एव तथा एव जन्तुः जन्तू जन्तवः. अत्र पुंलिङ्ग बहुवचनं वक्तुमिच्छति भवती, अतः सर्वे जन्तवः,
सर्वे जन्तवः, सर्वे जन्तवः. द्वितीयवाक्यं सम्यक् अस्ति वा भगिनि? जनाः एव आलस्येन पीडितानि सन्ति.
जनाः एव आलस्येन
पीडितानि.
किमर्थं पीडितानि? अहं चिन्तयामि रघुपति महोदय भवान् वदतु वाक्यं सम्यक् वा न वा, तत्र कोऽपि दोषः अस्ति वा?
जनाः किं वाक्यं किं वाक्यं
भगिनि पुनः पुनः तदेव वाक्यं पुनः एकवारं वदतु भगिनि.
महोदय अहं उक्तवती जनाः एव आलस्येन आलस्येन प्रथमतया अहं पीडितं लिखितवती. जनाः बहुवचनमस्ति, जनाः एव आलस्येन पीडितानि सन्ति सम्यक् अस्ति वा महोदय?
पीडिताः
पीडिताः
अलसया पीडिताः
उत्तमम् उत्तमम् इत्युक्ते आलस्येन आलस्येन पीडिताः
आलस्येन अलसः आलस्येन पीडिताः
अलसः अलसः नामपदम् आलस्यं तस्य भावम् इत्युक्ते जनाः आलस्येन पीडिताः अथवा अलसतया पीडिताः
अलसतया अपि ओके
इत्युक्ते अत्र अलसता इति पदमस्ति यथा मधुरता उष्णता अलसता भाववाचकपदानि भाववाचकपदानां कृते सर्वदा तृतीयाविभक्तेः उपयोगमेव कुर्मः. अलसतया
अलसतया पीडिताः सन्ति.
अलसतया पीडिताः सन्ति उत्तमं
सन्ति.
अनन्तरं
यदि जन्तवः अपि आलस्यं भवन्ति चेत् मृगराज्ये कोलाहलं भवति.
कोलाहलः भवति
कोलाहलः भवति
किमर्थं तथा? अत्र भवति इति पदं भूधातुः, तत्र भूधातुः अकर्मकधातुः, न कदापि कर्मपदं स्वीकरोति. पदमस्ति कोलाहलः. अत्र पश्यतु भगिनि, कोलाहलः भवति अथवा कोलाहलं करोति, कोलाहलं करोति,
कोलाहलं करोति अथवा कोलाहलः भवति,
कोलाहलः भवति अथवा कोलाहलं करोति. कः करोति? बालकः कोलाहलं करोति.
अत्र भगिनि ऐ वास् ट्रैङ्ग् टु से यदि जन्तवः अपि आलस्यं भवन्ति चेत् मृगराज्ये प्राणी प्राणिनां राज्ये कोलाहलः भवति.
तदेव वाक्यं पुनः एकवारं वदतु भगिनि.
यदि जन्तवः अपि आलसाः जन्तवः अपि अलसाः अलसाः भवन्ति चेत् मृगराज्ये कोलाहलं भवति.
कोलाहलः भवति. उत्तमं.
कोलाहलः भवति. अतः वयं सर्वे जन्तूणाम् उदाहरणं दृष्टीयं सम्यक्
भगिनि भगिनि अत्र पश्यतु, जन्तूनाम् इति पदं योजितवती. षष्ठी जन्तूनां षष्ठी बहुवचनं, तत्र सर्वशब्दमपि तस्य षष्ठीविभक्ति बहुवचनं योजनीयं. तत्र सर्वेषां जन्तूनां सर्वेषां जन्तूनां वदतु
उदाहरणं दृष्टीयं
द्रष्टव्यं
द्रष्टव्यम् ओके द्रष्टव्यम् अतः वयं
दृष्ट्वा
अत्र महोदय ऐ एम् ट्रैङ्ग् टु से वि शुड् लुक् अट् देम् फार् उदाहरणम् आल्वेस्. अतः दिस् वाक्यम् अतः वयं सर्वाणां जन्तूनाम् सर्वेषां जन्तूनाम् उदाहरणं द्रष्ट्वयम्
अत्र अत्र पश्यतु भगिनि, पश्यति जानाति भवति, भवती पश्यति इति पदं जानाति. पश्यति इति पदं दृष् धातुतः आगच्छति, अतः तत्र तत्र यथा कर्तव्यं तत्र तव्यत् प्रत्ययं, तव्यत् प्रत्ययम् इत्युक्ते तत्र करोति इति पदस्य तव्यत् रूपं कर्तव्यम्, तथा एव पश्यति इत्यस्य
द्रष्टव्यम् उदाहरणं द्रष्टव्यम् अपि सर्वदा स्वधर्मं पालनीयम्.
आम् तावदेव. अनन्तरं कोऽपि वद
अस्तु
भगिनि. वंशसुधा भगिनी भवती चिन्तितवती वा, एकं वाक्यं श्रावयतु
भगिनि. अहं सर्वे अपि सर्वान् अपि शृण्वन् श्रुतवती, किञ्चित् समयः अहम् इच्छामि, किन्तु मम पार्श्वे सर्वाणि अपि वाक्यानि एव अस्ति. इदानीमेव अहं नूतनपदानि न चिन्तयिष्यामि भगिनि.
इदानीमेव भवती प्रयत्नं कुर्वती, प्रयत्नं कुर्वती आसीत्
कुर्वती आसीत्. अग्रिमकक्षा अहं अवश्यं वदामि भगिनि.
उत्तमम् उत्तमम्. इदानीं
क्षम्यतां. रघुपति आचार्य शोभा भगिनी बहु सम्यक् वदति.
अस्तु अस्तु. अनन्तरम् अत्र किं कुर्मः इत्युक्ते, सर्वेषां पार्श्वे सर्वनामपदानि इति करपत्रं स्थापयन्तु एकवारम्. अत्र
आलस्यमेव समयस्य बहु चोरः अस्ति.
आलस्यमेव चोरः. आलस्यमेव चोरः अस्ति. तदेव
समयस्य बहु चोरः, समयस्य बहु चोरः अस्ति. बालकः विद्यालयम् एव समयेन न गच्छति, परन्तु उद्यानं समयेन गच्छति. जनाः अपि ऐ डिन्ट् फिनिश् द नेक्स्ट् सेण्टेन्स्. जनाः अपि स्वकार्याणां वाट् डु यु से लीव् इट् नेग्लेक्ट्
स्वकार्याणि विना अथवा स्वकार्यं विना
स्वकार्याणि विना
अत्र पश्यतु भगिनि, अत्र विना इति पदं भवन्तः जानन्ति एव. अत्र विना इति पदं द्वितीयविभक्तौ तस्य उपयोगः भवति. अत्र विना इति पदम् अव्ययम् इति कृत्वा यदा कदापि तस्य उपयोगः भवति. इत्युक्ते कार्यं विना इत्यपि समीचीनं, कार्याणि विना इत्यपि समीचीनं. किमर्थम् इत्युक्ते अव्ययम् इत्युक्ते तस्य न कदापि लिङ्गवचनविभक्ति परिवर्तनं भवति, न कदापि तस्य परिवर्तनं भवति. अतः एकवचनरूपेण सह एकवचनं उपयुज्यापि अथवा द्विवचनरूपमपि तत्र
सम्यक्
सम्यक् एव तत्र.
बट् वित् विना यु केन् आल्सो डु पञ्चमी विभक्ति
अपि च
तृतीय
द्वितीय तृतीय अपि च पञ्चमी. अत्र
परन्तु बट् हियर् यु यूस् द्वितीय अपि स्वकार्यं विना. वाट् शुड् ऐ से? स्वकार्यं विना अन्यानि कार्याणि कुर्वन्ति,
कर्तुमिच्छन्ति
कर्तुमिच्छन्ति.
उत्तमम्. इतोपि अस्ति वा?
दट्स् इट्.
उत्तमं, धन्यवादः. अत्र इदानीं वयं सर्वनामपदानि योजयित्वा कानिचन वाक्यानि रचयामः. अत्र गीता भगिनी भवती वक्तुमिच्छति वा? गीताञ्जलि भगिनी, अत्र गीताद्वयमस्ति. गीताञ्जलि भगिनी भवती वक्तुमिच्छति वा अथवा केवलं शृणोति वा अद्य? अस्तु. अत्र भूमा भगिनी भवती करोति वा? अत्र भवत्याः पार्श्वे सर्वनामपदानि इति करपत्रमस्ति चेत् तत्र प्रथमपुरुषे कर्तृपदानि कानि?
कर्तृपदानि सः, सा, तत्, सः, तौ, ते, सा, ते, ताः, तत्, ते, तानि. त्रीणि वचनानि,
त्रिषु वचनेषु उक्तवती. अपि च भवान् शब्दमपि वदतु त्रिषु वचनेषु.
भवान्, भवन्तौ, भवन्तः, भवती, भवत्यौ, भवत्यः.
अपि च सर्वशब्दं?
सर्वः, सर्वौ, सर्वे, सर्वा, सर्वे, सर्वाः, सर्वं, सर्वे, सर्वाणि.
उत्तमं. मध्यमपुरुषे कर्तृपदानि कानि?
त्वं, युवां, यूयम्. उत्तमपुरुषः अहम्, आवां, वयम्.
उत्तमम्. अहं पठति इति पदं ददामि. अत्र कानिचन वाक्यानि रचयतु प्रथमपुरुषे एकवचने, द्विवचने, बहुवचने च.
सः पाठं पठति. तौ पाठं पठतः. ते पाठं पठते.
पुनः
सः पाठं पठति. तौ पाठं पठतः. ते पाठं पठन्ति.
अधुना भवान् शब्दं योजयित्वा वदतु.
भवान् भोजनं खादति.
न, केवलं पठति एव भगिनि, केवलं पठति.
भवान् पठति, भवन्तौ पठतः, भवन्तः पठन्ति.
उत्तमम्. अपि च भवती?
भवती पठति, भवती पठतः, भवत्यः पठन्ति.
द्विवचनं सम्यक् वदतु.
भवन्तौ पठतः.
भवती शब्दस्य द्विवचनं
पठति, पठतौ, पठति, पठतः, पठन्ति, पठतः.
क्रियापदं सम्यक् एव, परन्तु अहं कर्तृपदविषये वदामि.
भवती पठति, भवत्यौ पठतः.
तदेव
भवत्यः पठन्ति.
उत्तमम्. अनन्तरं सर्वशब्दं योजयित्वा एकं वाक्यं वदतु.
सर्वः पठति, सर्वौ पठतौ, पठतः, सर्वे पठतः पठन्ति,
सर्वे पठन्ति, सर्वे संस्कृतं पठन्ति.
सर्व किमर्थम् एकवचनं द्विवचनं अहं चिन्तितवान् आसीत्. सर्वदा बहुवचनम् अस्ति इति, बट् परन्तु बहु एकवचनादि द्विवचनमपि अस्ति, किमर्थं
महोदय? अहमपि सम्यक्तया न जानामि, परन्तु सर्वः इत्युक्ते वयं चिन्तयामि, चिन्तयामः तत्र सर्वे इत्युक्ते सर्वे जनाः इति वयं चिन्तयामः, परन्तु अत्र एकवचने अपि च द्विवचने अपि अस्ति.
नपुंसकलिङ्गे वयं एकवचनं उपयोगं कुर्मः एकवचनस्य, पुल्लिङ्गे स्त्रीलिङ्गे कदापि न.
अत्र तत् किं तथा किमर्थम् इत्यपि अहमपि सम्यक्तया न जानामि, परन्तु अत्र यथा भवान् उक्तवान् सर्वः पुंलिङ्गे अस्ति, अपि च स्त्रीलिङ्गे अस्ति, अपि च एकवचने द्विवचने अपि अस्ति.
त्रिलिङ्गेषु त्रिलिङ्गेषु सर्वशब्दानि
न भगिनि, अत्र अत्र महोदयः किम् उक्तवान् इत्युक्ते तथा किमर्थम् अस्ति
द्विवचनं बहुवचनं
न अस्ति, द्विवचनमस्ति, स्त्रीलिङ्गे रूपाणि सन्ति, पुंलिङ्गे रूपाणि सन्ति, परन्तु सर्व इत्युक्ते सर्वे
सर्वे बहुवचनम्
इति वदामः, बहुवचने एव तस्य उपयोगं कुर्मः, परन्तु अत्र किमर्थम् एकवचनम् अपि च द्विवचनं तथा किमर्थम् अस्ति इति तस्य उत्तरम् अहमपि सम्यक्तया न जानामि. महोदय यदि भवान् ज्ञास्यति चेत् वदतु महोदय, अनन्तरम् अहमपि पृच्छामि. वदतु अनन्तरं भूमा भगिनी करोतु. अत्र मध्यमपुरुषे
त्वं पठसि, पुस्तकं पठसि, युवां संस्कृतं पठावः, पठतः यूयं संस्कृतं पठत.
उत्तमम्.
अहं संस्कृतं पठामि, आवां संस्कृतं पठावः, वयं संस्कृतं पठामः.
उत्तमं, धन्यवादः भगिनी. उत्तमं. अत्र अनन्तरम् अत्र वंशीसुधा भगिनी भवती करोति वा? अत्र अत्र केवलं केवलं भगिनी अत्र शृणोति, शृणोति इति क्रियापदं स्वीकृत्य केवलं नाममवाक्यानि रचयतु.
शृणोति प्रथमपुरुषे अहं वदामि भगिनि.
वदतु केवलं नववाक्यानि इत्युक्ते प्रथमपुरुषे त्रीणि वाक्यानि, मध्यमपुरुषे त्रीणि वाक्यानि, उत्तमपुरुषे त्रीणि.
सः शृणोति, तौ शृणु शृणुतः, ते शृण्वन्ति, त्वं शृणोषि, युवां शृणुतः, यूयं शृणुत्थ, अहं शृणोमि, आवां शृण्मः, वयं क्षम्यताम् आवां आवां शृण्वः, वयं शृण्मः.
उत्तमं, तावदेव. अनन्तरं तथा एव अत्र इदानीं पर्यन्तं वयं सर्वनामपदानि ज्ञातवन्तः. अत्र अन्यशब्दम् अन्यशब्दः अपि अस्ति, अन्यशब्दमपि त्रिषु लिङ्गेषु भवति, यथा सर्वशब्दः इति वयं जानीमः. अत्र अहम् एकं श्लोकं वदामि अत्र एतत् तत् इत्यस्मिन् विषये, एतत् इत्यस्मिन् विषये त्रीणि अन्यानि पदानि सन्ति. एतत् इदम् अधः तत् अत्र चत्वारि पदानि सन्ति. इदम् इत्युक्ते अत्र समीपतरवर्ति, यत् अस्माकं समीपे अस्ति तदेव इदम् इति वदामः. इदं शरीरं, भगवद्गीतायां कृष्णः वदति इदं शरीरं कौन्तेय इति वदति. इत्युक्ते इदम् इत्युक्ते सन्निकृष्टम् इत्युक्ते यत् समीपे अस्ति, अस्माकं समीपे अस्ति तदेव तदानीम् एव इदम् इति वदामः. अपि च एषः इत्युक्ते किञ्चित् दूरं, किञ्चित् दूरम् अस्ति तदा वयम् एषः इति वदामः. यदि बहु दूरम् अस्ति चेत् तदा वयम् अधः इति वदामः. वयं जानीमः एव श्लोकः, पूर्णम् इदं पूर्णम् अधः, पूर्णमिदं पूर्णमधः. तत्र अधः इत्युक्ते सः इति अर्थः. अत्र श्लोकः अस्ति, इदमस्तु सन्निकृष्टं च एतत् समीपतरवर्ति चैतदो रूपम्, अधसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् इति श्लोकः अस्ति. अत्र इदानीं वयं किं कुर्मः इत्युक्ते गृहपाठविषये अत्र वर्षाकालः नाम्ना एकं निबन्धं दत्तवती अहं, तस्मिन् विषये किञ्चित् कालं चिन्तनं कुर्मः. अत्र सतीश् महोदय, भवान् पठति वा वर्षाकालः इति? पठतु.
क्षम्यताम्, ऐ विल् डू दट् जस्ट् वन्. वर्षाकाल
भगिनि एकः प्रश्नः अस्ति.
वर्षाकाले गगने मेघाः भवन्ति, वर्षाकाले गगने मेघाः भवन्ति, ते गर्जन्ति, क्रोदामन्य स्फुरन्ति, सर्वत्र जलं भवति, ग्रामे मार्गः पङ्कमयः भवन्ति, वर्षाकाले मण्डुकः रटन्ति, मयूरः नृत्यन्ति, वृक्षः पल्लवितः भवन्ति, बीजानि अङ्कुरितानि भवन्ति, क्षेत्राणि जलपूर्णानि सस्यसमृद्धानि च भवन्ति, कृषकः कृषिं कुर्वन्ति, ते क्षेत्रेषु बीजानि वपन्ति, सस्यानि वर्धयन्ति, ते प्रसन्नः भवन्ति, वर्षाकाले जलाशयः पूर्णः भवन्ति, कूपः अपि पूर्णः भवन्ति, नद्यः जलेन परिपूर्णः भवन्ति, वर्षाकाले जनः छत्रं धृत्वा गच्छन्ति, बालकः नौकः निर्माय कुल्यासु प्लावयन्ति, वृष्टिकारणतः देशस्य धान्यसमृद्धिः अधिका भवति, वृष्टिः देशस्य जीवननाडी.
उत्तमं. भवता सर्वाणि पदानि अवगतवान्, अवगतानि वा महोदय? भवान् अवगतवान् इत्युक्ते अधुना वयं किं कुर्मः इत्युक्ते किञ्चित् कालं पङ्क्तिशः पश्यामः. प्रथमं वाक्यं दत्तमस्ति, वर्षाकाले गगने मेघाः भवन्ति. एकवचने वदतु महोदय.
वर्षाकाले गगने मेघः भवति.
अत्र गगनम् इति पदमस्ति महोदय. गगने इत्यस्मिन् स्थले आकाशः, अपि च मेघः इत्यस्मिन् स्थले तत्र वारिदः अथवा जलधरः इति पदं योजयित्वा वाक्यं पुनः रचयतु.
वर्षाकाले गगनं,
गगनम् इति पदस्य पर्यायवाचकपदमस्ति आकाशः.
वर्षाकाले आकाश, आकाशे मेघ भवति.
मेघः इत्यस्मिन् स्थाने तत्र जलधरः अथवा वारिधरः अथवा वारिदः वारिदः इत्युक्ते अत्र पर्यायवाचकपदानि सन्ति. जलधरः इत्युक्ते यः जलं धरति सः जलधरः. तथा एव वारिदधाति वारिदः वारिदः वारिधरति वारिधरः. तथा पर्यायवाचकपदानि सन्ति. अत्र मेघः इत्यस्मिन् स्थले अन्यं पदं योजयित्वा वदतु.
मेघ 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 पर्यायवाचिशब्द
अहम् उक्तवती जलधरः अथवा वारिधरः वारिधरः वदतु.
वर्षाकाले आकाशे जलधरः भवति या वारिदः भवति.
वारिधरः भवति बहुवचने वदामश्चेत् वर्षाकाले आकाशे
जलधरः भवन्ति वारिदः भवन्ति.
द्वितीयं वाक्यमस्ति ते गर्जन्ति. अत्र ते गर्जन्ति इति वाक्यमस्ति. के गर्जन्ति?
मेघा गर्जन्ति.
उत्तमम्. अत्र परन्तु वयं जानीमः, भवान् जानाति एव, परन्तु अन्येषां कृते वयम् अद्य चिन्तनं कुर्मः. अत्र गर्जति इति पदमस्ति. गर्जति साधारणतया वने सिंहाः गर्जन्ति, परन्तु आकाशे मेघाः गर्जन्ति इत्युक्ते किम्?
गर्जन्ति न जानामि.
उमलः शब्दं करोति.
उत्तमं. तदेव इत्युक्ते अत्र वर्षायाः पूर्वम् आकाशात्
उच्चैः
यः शब्दः अस्माभिः श्रूयते तदेव गर्जनम् अथवा वृष्टेः पूर्वं वयं यं शब्दं शृणुमः तदेव गर्जनं. अत्र तृतीयं वाक्यमस्ति. तृतीयं वाक्यं किं?
सौदामन्यः स्वरन्ति. सौदामनी स्फुरति.
सौदामिनी स्फुरति. उत्तमं. सौदामिनी तस्य कृते अन्यं पदं ददामि. अत्र विद्युल्लता. विद्युल्लता इत्युक्ते सौदामिनी.
विद्युल्लता उत्तम शब्दः.
वदतु. विद्युल्लता योजयित्वा वदतु.
विद्युल्लताः स्फुरति.
विद्युल्लताः स्फुरति.
भगिनि
एकः प्रश्नः. विद्युल्लता डबल् लकार द्वयं लकार द्वयं
भगिनि न न भगिनि महोदय, अत्र भगिनी किम् उक्तवती इत्युक्ते तत्र लकारद्वयमस्ति वा?
लकारद्वयम्.
अत्र
लकारद्वयं सन्धिकारणेन भवति?
न न केवलम् अहं सन्धिः अस्ति इति भाति महोदय. विद्युत् योगः लता, विद्युल्लता. भवान् सम्यक् उक्तवान्, तत्र सन्धिः अस्ति. उत्तमम्. अत्र विद्युल्लताः स्फुरन्ति. अत्र विद्युल्लता अथवा तडित् इत्युक्ते तदपि सौदामिनी एव. यदि वयं ललितासहस्रनामं शृणुमः चेत् तत्र तडिल्लता समरुचिः इति एकं नाम अस्ति. अनन्तरं वृष्टेः पूर्वम् अपि च मेघगर्जनानन्तरम् आकाशे विद्युल्लतां वयं द्रष्टुं शक्नुमः. इत्युक्ते आकाशे विद्युल्लता स्फुरति. अत्र स्फुरति इति पदमस्ति. स्फुरति इत्युक्ते किं वदतु?
स्फुरति स्फुरति वयं वयं दर्श दर्शयन्ति
अस्माभिः
क्षणकालेभिः
दृश्यते. महोदय वदतु. आचार्यमहोदय वदतु. स्फुरति इत्युक्ते
प्लस्
इत्युक्ते केवलं किञ्चित् कालमेव दृश्यते,
किञ्चित् कालम्
इत्युक्ते तस्य कृते वदतु महोदय,
ऐडिया स्फुरति,
ऐडिया स्फुरति, इत्युक्ते केवलं किञ्चित् कालमेव वयं द्रष्टुं शक्नुमः, इत्युक्ते स्फुरति इत्युक्ते तस्य कृते अन्यानि पदानि सन्ति, द्योतते द्योतते अथवा भासते अपि च प्रकाशते, परन्तु अत्र स्फुरति इत्येव समीचीनं पदं, विद्युल्लता स्फुरति तावदेव, तत्र क्रियापदं कियत् उत्तमम् अस्ति, उत्तमम्. अनन्तरम् अत्र सर्वत्र जलं जलं भवति, अनन्तरं तत्र वाक्यम् एकवचने एव अस्ति, अग्रिमं वाक्यं वदतु महोदय,
एकत्र जलं भवति,
अग्रिमं वाक्यं
एकः प्रश्नः अस्ति, नयनौ स्फुरति,
नयनं स्फुरति, ऐ विल् नॉट आस्क द सेम थिंग,
पुनः वदतु भगिनि,
नयनं स्फुरति, प्रवेश बुक्
प्रवेशपुस्तकस्य नयनं स्फुरति
पुस्तकम्
इति पदम् अस्ति,
इत्युक्ते तस्य अर्थः कः भगिनि, किञ्चित् वदतु, नयनं स्फुरति,
नयनं स्फुरति मीन्स् इट्स् अ ट्रेम्ब्लिङ्ग्, इट्स् अ कम् I'll give you the sentence. It's there in the Pravesha book. The Spurati has come there. Right? And it has a little different meaning from this, I think.
Adhana avagachami. Nayanam Spurati chukte. Angla bhashayam vadatu.
Throbbing. Eye throbs.
Throbbing.
But here also Spurati, but this is a different meaning, no?
Throbbing is... context is different.
Context is different.
Uttamam, Pagni. Anantram, Mahodaya. Anantram, Ajima Vakyam Patata, Mahodaya.
Sarvatra Jalam Bhavati, Ekatra Jalam Bhavati.
अनन्तरं
ग्रामे मार्गः पङ्कमया भवन्ति, एकः मार्गः पङ्कमया भवति,
अत्र पश्यन्तु अत्र पङ्कमयः इति पदमस्ति, वयं सर्वे जानीमः एव ज्ञानमयम् आनन्दमयम् इति वयं जानीमः, पङ्कमयम् इति दत्तमस्ति, अत्र अस्य कृते एकः प्रत्ययः अस्ति, इत्युक्ते मयट् प्रत्ययम् इति वदामः, मयट् प्रत्ययः इत्युक्ते तत्र यस्मिन् कस्मिन्नपि सर्वत्र, यदि तस्य भावः सर्वत्र अस्ति चेत् तदा वयं मयट् प्रत्ययस्य उपयोगं कुर्मः, ज्ञानमयम् आनन्दमयं तथा एव अत्र पङ्कमयम् ब्रह्ममयम् उत्तमम्, मार्गाः पङ्कमयाः भवन्ति, पङ्कम् इत्युक्ते किं
कीचड्,
अत्र उत्तमम् इत्युक्ते अत्र अत्र आर्द्रा मृत्तिका एव आर्द्रा मृत्तिका एव पङ्कम् इति वदामः, इत्युक्ते क्ले मड् अथवा वेट् सायिल् किमपि उत्तमम्, अनन्तरम् अत्र मार्गाः पङ्कमयाः भवन्ति, अपि च किं भवति वर्षाकाले
एकः मार्गं पङ्कमयं भवति,
अनन्तरम् अग्रिमं वाक्यं पठतु.
वर्षाकाले मण्डूकः रटन्ति. वर्षाकाले मण्डूकः रटति.
मण्डूकः मण्डूकः इत्युक्ते किं?
मण्डूकः एकः मण्डूक.
मण्डूकः इत्युक्ते पक्षिविशेषः न दन्तविशेषः.
मण्डुकम् एकः मण्डुकं रटति.
न न अत्र अत्र यद्वाक्यं दत्तमस्ति तत् समीचीनमेव. मण्डूकाः रटन्ति इति वाक्यं दत्तमस्ति, परन्तु मण्डूकः इत्युक्ते कः?
कूपमण्डूकः.
उत्तमम्. अत्र मण्डूकः इत्यस्य कृते अन्यं पदमस्ति भेकः. वदतु महोदय.
भेकः वर्षाकाले एकः भेकः रटति.
रटति. अत्र रटनं इति कार्यमस्ति. रटनम् इत्युक्ते किं?
शब्दं करोति.
ध्वनिं करोति.
उच्चैः शब्दं करोति. तावदेव रटनं. मण्डूकाः रटन्ति. उत्तमम्.
परन्तु भगिनि इन् वै हर्टिङ्ग् इस् ओ हिन्दी मे रट् रट् रट्टे लगाना रटति. डस् इट् आल्सो मीन् रिपीटेड्लि सेयिङ्ग् संथिङ्ग् रैट्?
इत्युक्ते इत्युक्ते वयम् उच्चैः पठामः तदेव रटति. परन्तु यदि वयं संस्कृतं पठामश्चेत् उच्चैः शब्दं कृत्वा सम्यक् पदं नास्ति तत्र. तत्र तत् पदं सम्यक् पदं नास्ति, परन्तु केवलं
महोदय मण्डुका यथा मण्डुका रटति शुनका बशति सिंहः गर्जति गर्दभः.
अहमपि न जानामि, परन्तु एकैकस्य जन्तोः विषये तस्य कथं शब्दं करोति इत्यस्मिन् विषये कानिचन पदानि सन्ति. प्रत्येकं पदमस्ति.
भगिनी रटति रट्ठति इति शोभा भगिनी यः वदति तदेव रट्ठ महाप्राणक्षरे रटति इति भेकः एव अस्ति भगिनि.
अत्र अत्र अल्पप्राणटकारः एव रटति. रटनमेव.
परन्तु रटति रटति इति शब्दः वदत् अहं चिन्तयामि स्पीक् लौड्लि.
न न भगिनि भगिनि अत्र पश्यतु, अत्र पदमस्ति रटति. रटति इति पदात् क्रियापदात् रटनम् इति ल्यूट् रूपम् आगच्छति, परन्तु अत्र रूपमेव रटति रटनं. तत्र महाप्राण यदि रटनम् इति पदम् अस्ति चेत् अहं न जानामि, परन्तु अत्र यत् पदं दत्तमस्ति तद् तत्तु
इदानीमेव रटति सम्यक् एव, परन्तु रटति इति अस्ति वदति चेत् शोभा भगिनी यः वदति रटनम् इति स्पीकर् लैक् हिन्दी रटनम्
रिपीट् रिपीट् सेम् मीनिङ्ग्
तदेव अहं चिन्तयामि.
रटनम्
अस्तु इत्युक्ते अन्यं पदम् अस्ति चेत् तस्य अर्थः अपि समानः इति महोदय
अहं चिन्तयामि किञ्चित्.
परन्तु अहं न जानामि भगिनि. अनन्तरं अनन्तरं वयं किं कुर्मः इत्युक्ते अत्र महोदय सतीश् महोदय वदतु.
ओके मयूरः नृत्यन्ति. मयूरः नृत्यति.
अन्यं पदं योजयित्वा वदतु मयूरः इत्यस्मिन्.
मयूर
अहं वदामि बर्हि. बर्हि इत्यपि नकारान्तपदं.
बर्हि
भवन्तः श्रुतवन्तः एव बर्हि पिञ्छावचूडाङ्गं. बर्हि पिञ्छावचूडाङ्गं कृष्णं वन्दे जगद्गुरुं. बर्हि इत्युक्ते मयूरः.
मयूर
बर्हि पदं योज वदतु
बर्हि नृत्यति बर्हि
बर्हि नृत्यति यदि स्त्रीलिङ्गे वदामश्चेत् किं भवति
स्त्रीलिङ्गरूपं
गीता भगिनी वदतु स्त्रीलिङ्गे किं वदामः बर्हि पुंलिङ्गपदं
बर्हिन्
बर्हिणि किमर्थं तत्र मूर्धन्यणकारः अस्ति किमर्थं रेफः अस्ति बर्हि बर्हिणि तथा एव मयूरस्य अन्यनाम अस्ति शिखी शिखी शिखिनी अत्र वद शिखिनः नृत्यन्ति अथवा नृत्यन्ति नृत्यन्ति अथवा बर्हिणः नृत्यन्ति अग्रिमं वाक्यं वदतु महोदय
वृक्षः पल्लवितः भवन्ति वृक्षः पल्लवितः भवति
पल्लविताः इति पदम् इत्युक्ते किं
पल्लवितः पल्लविता
इत्युक्ते किं
पल्लविता मीन्स् ग्रोस् इट् ग्रोस् ओपन्स् अप्
न्यू लीव्स् न्यू लीव्स्
न्यू
शूट्स्
उत्तमम् उत्तमम् इत्युक्ते पल्लविताः इत्युक्ते नूतनतया लघु लघु पत्राणि वृक्षाणां द्रष्टुं शक्नुमः यथा वसन्तकाले वयं द्रष्टुं शक्नुमः तथा एव वर्षायाः अनन्तरमपि वयं नूतनानि लघु लघु पत्राणि द्रष्टुं शक्नुमः अनन्तरं वदतु भगिनि
अङ्कुरः पदं केवलं बीज उद्भवस्य अस्ति वा
भवति
अत्र वयम् अङ्कुर पदं न वी केन्ट् यूस् दट् रैट् भगिनि फार् ट्रीस्
अत्र अग्रिमं वाक्यं भगिनि धन्यवादः महोदय भगिनी भवती एव पठतु अग्रिमं वाक्यं किमस्ति अत्र बीजानि पठतु
एकनिमिषं बीजानि वर्षकाले sorry bhagini I lost my place here
bhayani ankurishni
bijani
vadatu
ankuritani
bijani oh sorry okay bijani ankuritani bhavanti bijani ankuritani
ichukte
to
ichukte
like they are sprouting तत् पदं बीजानि एव उपयुज्य शक्तुमः भगिनि
अहं चिन्तयामि बीजे अङ्कुरम् अस्ति पूर्वमेव अस्ति इत्युक्ते बीजस्य अङ्कुरमस्ति इत्युक्ते बीजे अङ्कुरमस्ति यदि वयं चिन्तयामश्चेत् तत्र बीजे वृक्षः एव अस्ति इत्युक्ते अत्र
सत्यं भगिनि
बहु उत्तमं
बीजे वृक्षमेव अस्ति परन्तु अत्र अङ्कुरं बीजे एव अस्ति परन्तु वर्षाकाले बीजानि अङ्कुरितानि भवन्ति यदङ्कुरम् अन्ते अस्ति सः बहिः आगच्छति
That word cannot be used for trees and plants is my question bhagini like we cannot say the trees have ankura like it's only for a bija right for trees it's a different words like they are sprouting also not sprouting but blossoms or whatever pallavita mahode
pallavita
only for vrikshaah ankura is only for bijam right okay
tavadeva यथा वृक्षाः पुष्पिताः भवन्ति अथवा पल्लविताः भवन्ति तथा तथा एव अत्र बीजानि अङ्कुरितानि भवन्ति.
तो वयं वृक्षाः अङ्कुरिताः भवन्ति न
वदामः.
धन्यवादः.
अङ्कुरित पल्लवित पदानि विशेषणं ताप्रत्य विशेषणपदानि सन्ति खलु?
आं भगिनि.
धन्यवादः.
अत्र क्ताप्रत्ययः अपि च क्ताप्रत्ययम् इत्युक्ते तत्र त्रिषु लिङ्गेषु भवति, रूपाणि त्रिषु लिङ्गेषु भवन्ति.
इन् सिङ्गुलर् अङ्कुरितानि, अङ्कुरितानि नपुंसकलिङ्ग बहुवचनं अङ्कुरितम् अङ्कुरितानि.
अत्र किमर्थं तथा बीजानि बीजानि इति पदस्य विशेषणं?
बीजानि अङ्कुरितं भवति.
बीजानि
एकवचनम् एकवचनं बीजं
बीजम्
अङ्कुरितं भवति
भवति.
पुनः पुनः गीता भगिनी वदतु. केवलं
बीजं बीजम् अङ्कुरितम् अङ्कुरितं भवति
तावदेव. भवती एव वदतु अग्रिमं वाक्यं.
क्षेत्राणि जलपूर्णानि सस्यसमुद्राणि सस्यसमृद्धानि च भवन्ति.
अत्र एकवचने वदतु भगिनि.
क्षेत्राणि क्षेत्रं जलपूर्णं सस्यसमृद्धं च भवति.
उत्तमम्. अत्र पूर्वस्मिन् वाक्ये अङ्कुरितम् इति पदमस्ति, परन्तु अत्र बहुवचनरूपम् अङ्कुरितानि इति अस्ति. तत्र णत्वम् अस्ति वा न वा?
नास्ति.
पूर्वस्मिन् वाक्ये अङ्कुरितम् इति पदमस्ति, बहुवचनरूपं किम्?
अङ्कुरितानि.
उत्तमम्. अत्र अत्र वाक्यं किमस्ति? क्षेत्राणि इति अस्ति, णत्वम् अस्ति. किमर्थम्?
रेफा
इत्युक्ते रेफात् अनन्तरं बाधकवर्णाः न सन्ति.
न सन्ति बाधकवर्णाः.
अत्र अत्र पश्यतु, क्षेत्राणि इत्यस्मिन् अत्र तकारस्य अनन्तरम् एव रेफः अस्ति. रेफात् अनन्तरं केवलं केवलम् आकारः एव अस्ति. अत्र द्वितीयं पदमस्ति जलपूर्णानि. जलपूर्णानि तत्रापि निमित्तमस्ति, परन्तु णत्वं नास्ति. किमर्थम्?
पूर्णानि
आचार्यमहोदय वदति वा भवान्? अत्र जलपूर्णानि इति पदमस्ति, तत्र निमित्तमस्ति, परन्तु परन्तु णत्वं न भवति. किमर्थं?
जलपूर्णानि जलपूर्णानि पूर्णानि
रेफस्य अनन्तरं तत्र मूर्धन्यणकारः अस्ति. इत्युक्ते मूर्धन्यणकारः तवर्गीय अन्तिमव्यञ्जनं तावर्गीय. यदि तवर्गीयव्यञ्जनं वा पवर्गीयव्यञ्जनं वा अस्ति चेत् तत्र णत्वं भवति, परन्तु मध्ये चवर्गीयव्यञ्जनं वा तवर्गीयव्यञ्जनं वा तवर्गीयव्यञ्जनं वा अस्ति चेत् ते बाधकवर्णाः भवन्ति, अतः तत्र णत्वं न भवति. तदर्थमेव अत्र जलपूर्णानि इति एव भवति, तथा एव सस्यसमृद्धानि. तत्रापि धकारः अपि च दकारः अस्ति, अतः एव तत्र निमित्तमस्ति चेदपि तत्र णत्वं न भवति. उत्तमम्. अत्र क्षेत्रं क्षेत्राणि, क्षेत्रमित्युक्ते किम्, अत्र क्षेत्रमित्युक्ते किम् अस्मिन् वाक्ये?
शील्ड्
इत्युक्ते कृषिक्षेत्रं, कृषकक्षेत्रम् अथवा सस्यक्षेत्रम्. क्षेत्राणि जलपूर्णानि इत्युक्ते तत्र क्षेत्रेषु केवलं जलमेव दृश्यते.
जलमया
भवन्तः जलमयानि. उत्तमं. जलमयानि. उत्तमम्. अत्र भगवद्गीतायां एकः अध्यायः अस्ति क्षेत्रक्षेत्रज्ञविभागयोगः. उत्तमं. उत्तमम्. उत्तममेव. अनन्तरम् अत्र जलपूर्णानि भवन्ति. अत्रापि पूर्णानि इत्यस्मिन् पदे तत्र बाधकवर्णाः सन्ति, अतः एव तत्र नत्वं न भवति. सस्यसमृद्धानि भवन्ति, अत्रापि तथा एव.
अपि च समुद्राणि, समृद्धानि मीन्स् आल् द इमर्स्ड् इन् द वाटर्.
न न, क्षेत्राणि, क्षेत्राणि सस्यसमृद्धानि भवन्ति. केन समृद्धानि भवन्ति? सस्येन, सस्यैः समृद्धानि.
यथेष्टानि सस्यानि.
यथेष्टानि इत्युक्ते सस्यैः क्षेत्राणि समृद्धानि
सर्वत्र भवन्ति.
क्षेत्रे सस्यानि सर्वत्र दृश्यन्ते. क्षेत्रेषु, कृषिक्षेत्रेषु, कृषिक्षेत्रेषु सस्यानि सर्वत्र दृश्यन्ते. सर्वत्र पश्यामः क्षेत्र, कृषिक्षेत्रे. तदेव. अनन्तरम् अत्र अग्रिमं वाक्यं गीता भगिनी पठतु.
एकः प्रश्नः, समृद्धानि इत्युक्ते कः अर्थः?
समृद्धानि इत्युक्ते पूर्णानि एव. पूर्णानि एव.
सो वाट् डस् इट् मीन् दट् द होल् फील्ड् इस् इमर्स् इन् वाटर्?
फील्ड् वित् सस्यानि.
अत्र पदद्वयमस्ति भगिनि, क्षेत्राणि जलपूर्णानि भवन्ति, अपि च क्षेत्राणि सस्यसमृद्धानि भवन्ति. इत्युक्ते अत्र च इति अव्ययं दत्तमस्ति. इत्युक्ते क्षेत्रेषु जलं पश्यामः, अपि च सस्यानि अपि वयं द्रष्टुं शक्नुमः. कृषिक्षेत्रे, कृषिक्षेत्रे किं किं दृश्यते, किं किं वयं द्रष्टुं शक्नुमः इति अत्र दत्तमस्ति. कृषिक्षेत्रे यदि वर्षाकालः अस्ति चेत् तदा क्षेत्रं जलपूर्णं भवति, अपि च क्षेत्रं सम्पूर्णं सस्यानि एव दृश्यन्ते. अनन्तरं
कृषकाः कृषिं कुर्वन्ति. कृषकः कृषिं कुर्व करोति
इत्युक्ते कृषिकार्यं करोति. तत्र कृषीवलः इति अन्यनाम अस्ति. कृषकाः इत्युक्ते कृषीवलः. ते किं कुर्वन्ति अत्र?
कृषिं कुर्वन्ति.
अग्रिमवाक्यं पठतु.
कृषीवलः, कृषीवलः इत्युक्ते कृषकः.
समानार्थकपश्य.
देन् ते क्षेत्रेषु बीजानि वपन्ति.
एकवचने वदतु.
सः क्षेत्रे ओके, सः क्षेत्रे बीजानि नो सः क्षेत्रे क्षेत्रेषु नो सः क्षेत्रेषु बीजं वपति. क्षेत्रेषु बहुवचनं.
तदपि एकवचने वदतु.
सः क्षेत्रे बीजं वपति.
उत्तमम्. अत्र वपति इति नूतनं पदमस्ति, क्रियापदम्. इत्युक्ते किं जानाति वा?
ऐ थिङ्क् इस् they're putting the seeds. I don't know in Sanskrit.
Vadat Mahodaya. भगिनी वंशीसुधा भगिनी वदतु, संस्कृतभाषायां प्रयत्नं करोतु.
किं वदामि भगिनि?
वपति
वपति बीजः पङ्कतया एव तिष्ठति, सः कार्यं वपति इति अहं जानामि.
इत्युक्ते इत्युक्ते किम् इत्युक्ते कृषकाः कृषिक्षेत्रेषु बीजानि स्थापयन्ति, भूमौ स्थापयन्ति.
भगिनी प्रश्न, बीजं भुवां भुवां स्थापयन्ति न सम्यक् अस्ति वा?
अत्र भूमिः भूमिः इत्यस्य सप्तमी रूपं किम्? भूमौ अथवा
भू ओ न जानामि भगिनी, सारि.
यदि भूम्याम् इति अपि अस्ति चेत् तत् समीचीनमेव, परन्तु अहं चिन्तयामि भूमौ.
भूमौ
इत्युक्ते कृषकाः बीजानि भूमौ स्थापयन्ति, तदा किं भवति? सस्यानि वर्धयन्ति.
भूमिः स्त्रीलिङ्गं मतिशब्दं वत् मतिशब्दवत्?
आं भगिनि, अहं चिन्तयामि. गीता भगिनि पठतु.
कुर्वन्ति ते क्षेत्रेषु ओके सस्यानि वर्धयन्ति. सस्यं वर्धयति.
सस्यम् इत्युक्ते किम्? अन्येषां
सस्यम् यदि सस्यम् इत्युक्ते प्लाण्ट्
इत्युक्ते लघुवृक्षः.
लघुवृक्षः लघुवृक्षः.
अत्र कृषकाः सस्यारोपणं कुर्वन्ति, कृषिक्षेत्रे सस्यानाम् आरोपणं कुर्वन्ति इत्युक्ते वपन्ति, तथा किं भवति? सस्यानि वर्धयन्ति. अत्र एकवचने वदतु.
सस्यं वर्धयति.
सस्यं वर्धयति. अत्र वृद्धधातुतः वर्धते इति क्रियापदम् आगच्छति, परन्तु अत्र निजन्तरूपं दत्तमस्ति. किमर्थम्?
They are grown.
By whom?
They made to grow. By the vriksha. By the varsha. Vrishti.
इत्युक्ते अत्र अत्र कृषकेण कृषकेण अथवा वृष्ट्या कृषकेण वा अथवा वृष्ट्या वा सस्यानि वर्धयन्ति. अहं चिन्तयामि अत्र अत्र कृषकेण कृषकेण सस्यानि वर्धयन्ति. सम्यक् न जानामि, परन्तु अत्र वृद्धधातुतः केवलं वर्धते इति पदम् आगच्छति, सस्यं वर्धते. अहं चिन्तयामि अकर्मकधातुः.
अकर्मकधातुः
अकर्मकधातुः सस्यं वर्धते, परन्तु कृषकेण सस्यानि वर्धयन्ति. अत्र निजन्तप्रयोगं दत्तमस्ति. उत्तमम्. अथवा वृष्ट्या अपि सस्यं वर्धयति. अनन्तरं किं भवति?
ते प्रसन्नाः भवन्ति.
के प्रसन्नाः भवन्ति?
सस्यानि.
अत्र सस्यानि वा अथवा कृषकाः वा?
कृषकाः
कृषकाः किमर्थं सन्तुष्टाः भवन्ति वदतु.
ऐ एम् सेयिङ्ग् द प्लाण्ट्स् आर् हेपि.
अस्तु अस्तु वदतु. किमर्थं कृषकाः सन्तुष्टाः भवन्ति?
सस्यानि वर्धयन्ति, धनसम्पादनं भवति.
इत्युक्ते अत्र 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 किं दत्तमस्ति इत्युक्ते केवलं तत्र ते बीजानि स्थापयन्ति तथा सस्यानि वर्धयन्ति तत् तं दृष्ट्वा इत्युक्ते सस्यवर्धनं दृष्ट्वा ते सन्तुष्टाः भवन्ति. अनन्तरं
वृष्टिः नास्ति चेत् कृषकाः बहु बहु
दुःखितमनसाः दुःखितमनसाः भवन्ति, असन्तुष्टाः भवन्ति.
वर्षकाले जलाशयाः पूर्णाः भवन्ति. जलाशयाः
जलाशयः जनति
पाण्ड्
वाटर्फाल्
जलाशयः इत्युक्ते परिमाणं जलाशयः जलाशयः इत्युक्ते तत्र जलमस्ति परन्तु परिमाणे बृहत् अस्ति इत्युक्ते बृहान् जलाशयः.
सरोवरे
तत्र सरोवरं नास्ति परन्तु चिन्तयामि
वाटर्फाल्
तथैव अत्र
वर्षकाले जलाशयः पूर्णः भवति.
अत्र तटाकः अथवा तडाकः अथवा सरस् इत्यपि वक्तुं शक्नुमः. इत्युक्ते ते जलेन पूरिताः भवन्ति, जलेन जलाशयाः निर्भराः भवन्ति. अनन्तरम् अग्रिमं वाक्यं वदतु.
कूपाः अपि पूर्णाः भवन्ति, कूपः अपि पूर्णः भवति.
कूपः इत्युक्ते किं?
वेल् ऐ डोण्ट् नो दि अदर् संस्कृत वर्ड्.
तदेव अहमपि न जानामि. गृहे साधारणतया कूपात् वयं जलम् आनयामः.
प्रतिगृहे ग्रामे प्रतिगृहे कूपः अस्ति,
साधारणतया कूपं
कूपम् अस्ति,
कूपः अस्ति. उत्तमम्. अनन्तरम् अग्रिमं वाक्यं.
कूपम् अस्ति वा कूपः अस्ति?
कूपः अस्ति,
कूपः अस्ति. ओके. नद्यः जलेन नद्यः जलेन परिपूर्णाः भवन्ति, नदी जलेन परिपूर्णः भवति.
अग्रिमं वाक्यं.
वर्षकाले जनाः छत्रं धृत्वा गच्छन्ति. वर्षकाले जनः छत्रं धृत्वा गच्छति.
छत्रं धृत्वा गच्छति.
अत्र जनाः यथा सर्वाः पदं भवति. सो सिङ्ग्युलर् जनाः सेम् क्वशन् हियर् आल्सो रैट् भगिनि?
आं भगिनि, अहमपि न जानामि तस्य उत्तरं किं. न अहमपि न जानामि.
नित्यबहुवचनं सर्ववत् अत्रापि
अत्रापि क्रमः अस्ति. अत्र नित्यबहुवचनान्तम् इति नास्ति, केवलम् अत्र बहुवचनरूपम् अपि एकवचनं द्विवचनमपि अस्ति, परन्तु तथा किमर्थम् अहं न जानामि.
द्विवचनम् अस्ति वा? जनौ जनौ वा? जनाः जनौ
जनौ
यथा रामशब्दवत्. अत्र छत्रम् इति पदमस्ति, छत्रम् इत्यस्य कृते अन्यं पदमस्ति आतपत्रम्. आतपः आतपः इत्युक्ते उष्णतापः.
आतपः
आतपे
आतपः
आतपे
आतपः
आतपे अहं छत्रं गृहीत्वा छत्रं धृत्वा बहिः गच्छामि. आतपः इत्युक्ते उष्णतापः.
छत्रम् इस् नपुंसकलिङ्गम् और
नपुंसकलिङ्ग
नपुंसक द्वितीय सेम् थिङ्ग्. ओके.
उत्तमम्. उष्णतापे अपि वयं तस्य विनियोगं कुर्मः, अतः एव तस्य नाम अस्ति आतपत्रम्.
आतपत्रम्. ओके,
आतपत्रम्. अग्रिमं वाक्यं पठतु भगिनि.
बालकाः नौकाः निर्पाय कुल्यासु प्लावयन्ति. प्लावयन्ति बालकः नौकाः. बालकः नौकाः निर्पाय कुल्यासु प्लावयति.
सर्वाणि पदानि एकवचने वदतु.
बालकः नौकः निर्पाय कुल्यासु प्लावयति.
भगिनी चिन्तयतु, भवती चिन्तयतु, अत्र शोभा भगिनी प्रयत्नं करोति वा.
बालकः नौकः निर्माय.
न भगिनि, अत्र रघुपति महोदय वदति वा.
बालकः नौका
सर्वे शृण्वन्तु.
बालकः नौका निर्माय कुल्यां प्लावयति.
अत्र पश्यतु महोदय, अत्र नौकाः इति पदमस्ति. नौकाः द्वितीयाविभक्ति बहुवचनं. किमर्थम् इत्युक्ते अत्र निर्माय इति पदं ल्यबन्तपदमस्ति. ल्यबन्तपदात् पूर्वं साधारणतया तत्र अत्र द्वितीयाविभक्ति कर्मपदमस्ति. अत्र नौकाः इति पदं कर्मपदम्, अतः बालकः नौकां निर्माय. अत्र पदं दृष्ट्वा लिङ्गवचनविभक्तिं वदतु महोदय. कुल्यासु
स्त्रीलिङ्ग. कुल्यासु स्त्रीलिङ्ग.
प्लावयति. कुल्याम् इति वदामश्चेत् द्वितीया एकवचनं भवति. कुल्यायां. पुनः एकवारं तदेव वाक्यं वदतु.
बालकः नौकां निर्माय कुल्यायां प्लावयति.
उत्तमम्. अत्र प्लावयति इति नूतनं पदमस्ति. प्लावयति इत्युक्ते किम्?
फ्लोट्
इत्युक्ते तारयति. इत्युक्ते अत्र तरणम्. अत्र नौका तरति, परन्तु बालकाः नौकां तारयन्ति. बालकाः नौकां तारयन्ति. नौका जले तरति, परन्तु अत्र प्लावयन्ति इत्युक्ते तस्य अन्यपर्यायवाचपदमस्ति. तारयति, प्लावयति, तरति, तरणं वयं जानीमः एव, परन्तु अत्र नौकाः जले तरन्ति. वदतु भगिनि.
कुल्या इत्युक्ते
महोदय वदतु. कुल्या इत्युक्ते किम्?
केनल्. स्माल् स्ट्रीम्.
लघु परिमाणेन लघुः भवति, परन्तु तत्रापि जलमस्ति. जलं भवति. यथा महोदयः उक्तवान् केनाल् इति वदामः. उत्तमम्. अनन्तरम् अत्र नौकाः तरन्ति. नौकाः जले बालकैः.
प्रश्नः
वदतु भगिनि.
नौकाः द्विवचनं, द्वितीयविभक्ति बहुवचनं वा?
अत्र भगिनि, अत्र द्वितीयबहुवचनं.
ओके.
अत्र भवती एव वदतु एकवचने पूर्णं वाक्यं. सर्वाणि पदानि एकवचने एकवचने योजयित्वा वदतु.
बालकः नौकां निर्माय कुल्यायां प्लावयति.
उत्तमम्. अग्रिमं वाक्यं पठतु.
वृष्टिकारणतः देशस्य धान्यसमृद्धिः अधिका भवति.
अत्र भगिनि बालकाः नौकां निर्मान्ति. अत्र केन बालकः निर्माति नौकां? केन निर्माति बालकः? बालकः कागदेन नौकां कागदेन नौकां निर्माति. अनन्तरं जले तारयति. अपि च अत्र अग्रिमं वाक्यमस्ति, वृष्टिकारणतः देशस्य धान्यं
प्लावयन्ति इस् डिफरेण्ट् फ्रम् पलायन्ति, रैट्?
पलायति पलायति पलायनम्. अत्र प्लावयति प्लावयति अस्ति. प्लावयति इत्युक्ते तारयति. वृष्टिकारणतः देशस्य धान्य
वृष्टिकारणतः देशस्य धान्यसमृद्धिः अधिका भवति
इत्युक्ते जानाति भवति.
यस्.
उत्तमं.
सो वृष्टिकारणतः देशस्य धान्यसमृद्धिः अधिका भवति. सिङ्ग्युलर् आन् इट्स् ओन्.
उत्तमं. अन्तिमं वाक्यं,
वृष्टिः देशस्य जीवननाडी अस्ति. जीवननाडी अस्ति
इत्युक्ते किम्?
बहु मुख्यं. वृष्टिः देश
महोदय वदतु.
महोदय एतत् सम्यक् नास्ति. वृष्टिः देशस्य जीवननाडी नव वृष्टि नदी देशस्य जीवननाडी अस्ति.
अत्र पश्यतु,
वृष्टिः न भवति.
अत्र अहं वदामि, अहं चिन्तयामि. अत्र जीवननाडी, वृष्टिः देशस्य जीवननाडी इत्युक्ते अत्र आङ्ग्लभाषायां वदामः इडियोमेटिक् एक्स्प्रेशन् इत्युक्ते जीवननाडी अस्ति इत्युक्ते वृष्टिः अत्यन्त आवश्यकी. वृष्टेः महान् प्रभावः अस्ति. वृष्टेः कारणेन एव वयं सर्वे जीवितुं शक्नुमः. सर्वे जन्तवः वा पशवः वा पक्षिणः वा सस्यानि वा अथवा वृक्षाः किमपि वृष्टेः विना.
यथा वृष्टिः नास्ति चेत् नद्यः जीवननाडी
नास्ति.
नास्ति
इट् केनाट्
बि. इट् केनाट् बि
इत्युक्ते अत्र जीवननाडी इत्युक्ते वि केन् सर्वैव् इति अर्थः. तत्र इडियोमेटिक् एक्स्प्रेशन्. अत्र केवलं नाडी इत्युक्ते अत्र धमनि स्थिरः तथा वदामः, परन्तु अत्र जीवननाडी इत्युक्ते अत्र अर्थः केवलं महान्
एसेन्शियल्. परन्तु सम्यक् नास्ति जीवननाडी. नार्मलि वि यूस् फार् समथिङ्ग् एल्स्.
अस्तु महोदय, उत्तमम्. इत्युक्ते अत्र अस्मिन् वयं किं पठितवन्तः इत्युक्ते वर्षाकाले वयं किं किं पश्यामः, किं किम् अस्माभिः दृश्यते वर्षाकाले, किं किं भवति अत्र सम्यक् रीत्या लिखितमस्ति. परन्तु अद्य वयं किञ्चित् अभ्यासं कृतवन्तः. अनेन अभ्यासेन क कः लाभः वदन्तु? इदानीं पर्यन्तं वयं किञ्चित् अभ्यासं कृतवन्तः, तस्य एतादृश अभ्यासेन कः लाभः?
वयं विभक्त्याः वचनस्य अपि
विभक्तेः
वचनानि अपि वचनस्य अपि लिङ्गस्य अर्थम् उत्तमतरः ज्ञातुवन्तः
जानीमः इत्युक्ते अत्र तेषाम् अवगमनं भवति इत्युक्ते अत्र लेख्यबन्धं द्विवारं पठनेन एतानि पदानि मनसि सम्यक्तया तिष्ठन्ति, अपि च किञ्चित् चिन्तनं भवति तथा एव अस्य एतादृशेन अभ्यासेन मातृभाषाज्ञानम् अपि वर्धते. नूतनपदानि अद्य कानिचन नूतनपदानि जानीमः, तेषाम् अर्थः कः इति अवगमनार्थं किञ्चित् वयं गूगल् अपि कृत्वा किञ्चित् प्रयत्नं कृत्वा
ज्ञातुं शक्नुमः.
पर्यायवाचकपदं
भगिनी. अन्यत्र प्रश्नः अस्ति, सौदामिन्यः किं कः विभक्ति?
सौदामिन्यः रूपं किं? गीता भगिनी वदतु.
सौदामिन्यः सौदामिनी सौदामिन्यः प्रथमविभक्ति बहुवचनं स्त्रीलिङ्गं.
स्त्रीलिङ्गं प्रथमाविभक्ति
बहुवचनं.
उत्तमं.
लैक् रूपं लैक् नदी.
उत्तमं. नदी तावदेव नदी शब्दवत्
if it is like mati shabdam it will be saudaminayah.
Atra nadi bhagini kevalam nadi nadi shabdavat bhagini. Yadi vayam nibandham etasya artham purnataya gnyatavantah chet vayam api nutanam nibandham rachitum shaknumah. Satyam kila? I think if you understand this essay perfectly you can create your own essays.
Yes,
right, in the almost in the same pattern.
We learn so much from this.
Yadi bhavantah chitrakaraha santi chet ekam sundaram chitram lekhitum shaknuvanti. Atra ekam dushyam lekhitum shaknumah. Atra bahavah vishyah santi. Api cha atra varshagamanam kimartham avashyakam iti vayam janimashet तस्य कृते किं कर्तव्यम् इति वयं किञ्चित् चिन्तयितुं शक्यं.
गानम् अरचितुं शक्नुमः.
गानमपि वा? गानमपि इत्युक्ते अमृतवर्षिणी शृण्वन्तु सर्वे. अमृतवर्षिणी नाम्ना एकः रागः अस्ति, रागमस्ति, सुन्दरं तथा एव उत्तमम्.
May I say something about that bhuvam shabdam that I said earlier? Yesterday I was looking at, I cannot translate all this in Sanskritam. Yesterday I was looking at the shabdam anjari. I needed that bhu padam bhagini for something. Tatra bhuvam saptami भूपदस्य सप्तमी विभक्ति भुवाम् अस्ति भगिनी. ऐ कुण्ट् रिमेम्बर् वेन् यु आस्क् मी, दट्स् वेर् ऐ सेड् भुवां बीजं भुवां स्थापयामि.
सम्यक् अहं न जानामि अहं तत् न जानामि अधुना वयं किं कुर्मः इत्युक्ते अत्र इदानीं पर्यन्तं वयं केवलं गृहपाठविषये एव चर्चितवन्तः परन्तु अभ्यासपुस्तके किम् अस्ति इति अपि वयं किञ्चित् पश्यामः कालातीतः अभवत् परन्तु वयं शीघ्रं कुर्मः अत्र वंशसुधा भगिनी अत्र येन केनापि विलम्बेन आगतं वा अत्र 988 नम्बर् अस्ति कस्याः दूरवाणी 988597 सः न उक्तवान् अत्र किञ्चित् ध्वनिः अस्ति अत्र जयन्त नाम्ना ऐ थिङ्क् आल् आफ़् यु पार्टिसिपेटेड् इन् दिस् क्लास् इफ् यु डिड् नाट् पार्टिसिपेट् इन् द क्लास् ऐ रिक्वेस्ट् यु टु पार्टिसिपेट् जयन्त महोदय अनन्तरं अत्र 988597 4606 नम्बर् अस्ति कस्य दूरवाणीसङ्ख्या अहं न जानामि परन्तु भवन्तः वक्तुमिच्छन्ति चेत् वदन्तु जयन्त महोदयः अत्र वंशसुधा भगिनी अत्र पश्यतु षड्विंशतितमे पुटे अत्र किम् अस्ति इति किञ्चित् कालं पश्यामः भवती प्रतिदिनं किं किं करोति इति अहं कांश्चन प्रश्नान् पृच्छामि भवती कदा उत्तिष्ठति
अहं सार्धचतुर्वादने अहम् उत्तिष्ठामि
भवती कदा संस्कृतपठनं करोति
अहं दशवादनपर्य दशवादनतः दशवादन दशवादनात् एकादशवादनपर्यन्तम् अहं संस्कृतं पठामि
दशवादनात् आरभ्य उत्तमं भवती कदा पाकं करोति
अहं पञ्चवादन आरभ्य सार्ध षड्वादनतः अहं पाकं करोमि
उत्तमम् इत्युक्ते भवती कदा निद्राति
अहं एकादशवादने अनन्तरं निद्रां करोमि
इत्युक्ते अत्र भवती इदानीं पर्यन्तं यत् भवती किं कृतवती यदार्थसमयम् उक्तवती परन्तु अहं रात्रिवेलायां निद्रां करोमि अथवा अहं रात्रिसमये शयनं करोमि अहं प्रातःकाले पाकं करोमि अहं मध्याह्ने भोजनं करोमि तथा तदपि समीचीनम् इत्युक्ते यदि भवती कदा किं करोति तस्मिन् विषये यदार्थसमयम् अपि वक्तुं शक्नुमः नो चेत् केवलं प्रातःकाले अथवा मध्याह्ने तदपि समीचीनम् अत्र 5.4 भागे किम् अस्ति पठतु
कदा एतेषां प्रश्नानाम् उत्तरं लिखतु पठामि भगिनि भवान् कदा उत्तिष्ठति अहं पञ्चवादने उत्तिष्ठामि भवान् कदा विद्यालयं गच्छति अहं नववादने विद्यालयं गच्छामि सूर्योदयः कदा भवति सूर्योदयः षड्वादने भवति भवती कदा क्रीडति अहं सायङ्काले क्रीडामि भवती कदा पठति अहं प्रातःकाले पठामि
उत्तमम् अत्र सर्वाणि वाक्यानि केवलं प्रातःकाले वा अथवा मध्याह्ने अथवा सायङ्काले अथवा रात्रिवेला तथा अन्यानि पदानि योजयित्वा वाक्यरचनां करोतु
पुनरेकवारं
अत्र भवती यद् उक्तवती तत् समीचीनमेव अत्र अहं पञ्चवादने उत्तिष्ठामि इति अस्ति परन्तु पञ्चवादने तस्य स्थाने अहं प्रातःकाले उत्तिष्ठामि
तथा अहं प्रातःकाले उत्तिष्ठामि अहं मध्याह्ने विद्यालयं गच्छामि सूर्योदयः प्रातःकाले भवति. अहं सायङ्काले क्रीडामि. अहं प्रातःकाले पठामि.
उत्तमं. 5.4 भागे किमस्ति? पठतु. 5.5
एतेषाम् उत्तराणां प्रश्नं लिखतु. सीता सायङ्काले नित्याभ्यासं करोति. सीता कदा नित्याभ्यासं करोति? प्रश्नः. वेङ्कटेशः 6 योगासनं करोति. वेङ्कटेशः कदा योगासनं करोति? माता 10 पाकं करोति. माता कदा पाकं करोति? सर्वे अपि कदा अस्ति भगिनि. सा प्रातःकाले पूजां करोति. सा कदा पूजां करोति? अहं मध्याह्ने भोजनं करोमि. भवान् कदा भोजनं करोति?
उत्तमम्. एतानि वाक्यानि दृष्ट्वा भवती किम् अवगतवती?
समयः प्रातःकाले सायङ्काले इति सम्यक् एव अहं चिन्तयामि भगिनि.
इत्युक्ते अत्र उत्तरद्वयमपि समीचीनम्. इत्युक्ते अत्र सायङ्काले इति अपि सम्यक्. यदि भवती यदार्थसमयं वक्तुमिच्छति चेत् तदपि समीचीनं.
कदा
उत्तरद्वयमपि सम्यक्.
कदा यदा उपयुज्य अहं समयः सम्यक् एव अस्ति अथवा समयः अपि 10 या 6 इति सम्यक् एव भवति महोदय.
इत्युक्ते अत्र यदि वयं समयं वदामश्चेत् समयं वक्तुमिच्छामश्चेत् तदा सप्तमी विभक्तेः उपयोगं कुर्मः. अस्मिन् एतेषु वाक्येषु सप्तमी विभक्तिरूपाणि कानि वदतु.
सीता सायङ्काले सप्तविभक्ता अस्ति भगिनि.
वदतु अन्यानि पदानि अपि.
6 योगासनं, 6 अपि सर्वे अपि
सप्तमी विभक्तिरूपमेव. अत्र तथा एव अत्र 10 प्रातःकाले, मध्याह्ने, सायङ्काले इत्युक्ते यदा वयं समयं वदामश्चेत् तदा सर्वदा सप्तमी विभक्तेः उपयोगमेव कुर्मः. तत्र प्रश्नवाचकपदमस्ति कदा. भवान् कदा करोति? कदा इत्यस्य उपयोगं अत्र दत्तमस्ति. उपयोगं तथा कुर्मः. अनन्तरम् अद्य भवती अत्र. धन्यवादः भगिनी. अत्र शोभा भगिनी भवती वदतु भगिनि.
महोदय, एकः प्रश्नः अस्ति. बालकः कथायां अन्तिमवाक्यः अस्ति सम्यक् पठति च. च इति उपयोगं किं कुर्मः? सम्यक् पठति इति सम्यक् एव अस्ति न महोदय? च इति किमर्थं तदा अस्ति इदानीम् अत्र अस्ति?
अस्तु अस्तु, प्रश्नः अवगतः. कः वदति? यथा भगिनी वदति वा तस्य उत्तरं किम्?
आल्सो
वाट्स् अ क्वेश्चन् अम्मा.
उत्तमम् महोदयः उक्तवान्. तत्र महोदयः उक्तवान् आल्सो.
सः शालां समये गच्छति, पठनं च सम्यक् करोति.
इदानीम् अत्र च उपयोगं सम्यक् एव अस्ति, परन्तु सम्यक् पठति इति उक्तम् इति सम्यक् एव अस्ति. सम्यक् पठति च इति किमर्थम् अहं न
भगिनि तत्र सम्यक् एव सम्यक् पठति च, सः गच्छति अपि च पठति.
च इति उपयुज्य रामः, लक्ष्मणः, भरतः च वनं गच्छति. च इति उपयोगं
द्वे कार्यं अस्ति अत्र द्वे कार्यस्तः गच्छति अपि च पाठं पाठयति
पठति
पठति पाठं
पठति धन्यवादः
उत्तमम् उत्तमं महोदय सम्यक् उक्तवान् अत्र कार्यद्वयमस्ति उत्तमम् अनन्तरम् अद्य शोभा भगिनी भवत्या
एकः प्रश्नः अस्ति महोदय मध्याह्ने यू सेड् सम्थिङ्ग् बिफोर् इन् अ प्रीवियस् क्लास् अबौट् दिस् हकार एण्ड् मकार एण्ड् नकार can you please पुनः एकवारं
मध्याह्ने मध्याह्ने परन्तु मध्याह्ने एव वदामः ओ अस्तु परन्तु अत्र हकारे नकारः अस्ति यद् भवती उक्तवती तत् सम्यक्
उदाहरणं ब्रह्म यु रैट् ह फस्ट् अण्ड् मा लेटर्
रैट्
ब्रह्म
अनन्तरम् अत्र शोभा भगिनी अहं भवती वदतु अत्र अद्य बुधवासरः गुरुवासरः कदा
गुरुवासरः श्वः गुरुवासरः
श्वः गुरुवासरः सोमवासरः मङ्गलवासरः कदा
मङ्गलवासरः प्रपरह्यः
अत्र 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 अद्य वयं कानिचन नूतनानि पदानि ज्ञास्यामः अत्र अभ्यासपुस्तके कानिचन पदानि सन्ति अद्य ह्यः परह्यः प्रपरह्यः तथा एव अद्य श्वः परश्वः प्रपरश्वः अधुना वयं किं कुर्मः कालातीतः अभवत् अतः किञ्चित् शीघ्रं कुर्मः अत्र गीता भगिनी भवती कर्तुम् इच्छति वा अद्य बुधवासरः गुरुवासरः कदा
श्वः गुरुवासरः
ह्यः कः वासरः
ह्यः मङ्गलवासरः
परह्यः कः वासरः
सोमवासरः
भानुवासरः कदा
भानुवासरः पर भानुवासरः बुधन् परः प्रपरह्यः
उत्तमं प्रपरह्यः भानुवासरः
ऐ कुडन्ट् से प्रपरश्वः ऐ कुडन्ट् से लेटर् बिकास्
उत्तमं प्रपरह्यः प्रपरश्वः अत्र श्वः शुक्रवासरः श्वः शुक्रवासरः परश्वः शनिवासरः प्रपरश्वः भानुवासरः अथवा रविवासरः शोभा भगिनी इदानीम् अवगतवती वा
किञ्चित् कन्फ्यूस्ड् अस्मि अवगच्छामि भगिनी स्थाने प्रपरह्यः उक्तवती आं भगिनि
भवती एव वदतु अद्य कः वासरः
अद्य बुधवासरः
ह्यः कः वासरः
ऐ मीन् सारी अद्य गुरुवासरः
ह्यः
ह्यः बुधवासरः
परह्यः कः वासरः
परह्यः मङ्गलवासरः
सोमवासरः कदा
सोमवासरः प्रपरह्यः
प्रपरह्यः उत्तमम् अपि च शनिवासरः कदा
शनिवासरः अद्य गुरुवासरः श्वः परश्वः
परश्वः
शनिवासरः
रविवासरः कदा
प्रपरश्वः रविवासरः
प्रपरश्वः
प्रपरश्वः
एकवारं सर्वाणि पदानि सम्यक् उच्चारयतु एकवारम् अभ्यासपुस्तके अत्र किं दत्तमस्ति पठतु 5.5 भागे
अद्य भानुवासरः
अद्य भानुवासरः, श्वः सोमवासरः, परश्वः मङ्गलवासरः, भानुवासरः ह्यः, ह्यः शनिवासरः, परह्यः शुक्रवासरः, प्रपरह्यः गुरुवासरः.
उत्तमं, तावदेव. अत्र सप्तविंशतितमे पुटे 5.5 भागे तदेव दत्तमस्ति. अत्र 5.6 भागे किम् अस्ति? अत्र अद्य कः दिनाङ्कः? अद्य चतुर्थदिनाङ्कः.
चतुर्थ
अद्य गुरुवास अद्य गुरुवासरः अपि च चतुर्थदिनाङ्कः. ह्यः कः दिनाङ्कः?
ह्यः त्रीणि दिनाङ्कः.
तृतीयदिनाङ्कः.
तृतीयदिनाङ्कः.
अपि च परह्यः कः दिनाङ्कः?
परह्यः द्वे द्वितीयदिनाङ्कः.
प्रपरह्यः कः दिनाङ्कः?
प्रपरह्यः एकदिनाङ्कः.
प्रथमदिनाङ्कः एप्रिल् मासस्य.
ओ प्रथम. ओके ओके ओके. प्रथमदिनाङ्कः
प्रपरह्यः एप्रिल् मासस्य प्रथमदिनाङ्कः. अद्य एप्रिल् मासस्य चतुर्थदिनाङ्कः.
चतुर्थदिनाङ्कःलिङ्गमस्ति महोदय.
अत्र दिनं वा? दिनं
बिकास् प्रथमानि प्रथमः प्रथमा प्रथमं रैट् सो आल् त्री लिङ्गास् आर् देर् नो सो द्वितीय आल्सो द्वितीयः द्वितीया द्वितीयं सो वाट् शुड् यु यूस् फार् दिनम्
अत्र अत्र दत्तमस्ति दिनाङ्कः.
दिनाङ्कः
दिनाङ्कः इत्युक्ते दिनाङ्कः इति पुंलिङ्गपदम् अतः
प्रथमदिनाङ्कः इत्युक्ते समस्तपदं
प्रथमः दिनाङ्कः. उत्तमम् उत्तमम् इत्युक्ते पूर्णप्रत्ययान्ताः इति वदामः. प्रथमः, द्वितीयः, तृतीयः, चतुर्थः, षष्ठः.
प्रथमस्य दिनाङ्कः इस् इट् प्रथमस्य दिनाङ्कः बिकम् प्रथमदिनाङ्कः और् प्रथमः दिनाङ्कः बिकम् प्रथमदिनाङ्कः?
तत् त्यजतु भगिनि. समासं कथं कुर्मः इति अग्रिमम् अग्रिममस्ति परन्तु अग्रे अस्ति.
धन्यवादः.
अत्र केवलम् अत्र दिनाङ्कः इति पदमस्ति अतः अद्य एप्रिल् मासस्य चतुर्थः दिनाङ्कः चतुर्थदिनाङ्कः. उत्तमम्. अनन्तरम् अत्र शोभा भगिनी भगिनी वदति वा अत्र 5.6 भागे पठतु.
ओके फ्रोम् द शीर्षिकां पठामि भगिनि.
सूचना
प्रथमवाक्यं पठित्वा प्रश्नस्य उत्तरं लिखतु. यथा अद्य षोडशदिनाङ्कः पञ्चदशदिनाङ्कः कदा? पञ्चदशदिनाङ्कः ह्यः.
उत्तमं.
अद्य यु वाण्ट् मी टु कण्टिन्यू भगिनि?
पञ्चदशदिनाङ्कः इत्युक्ते
पञ्चदश इत्युक्ते 15th दिनाङ्कः. षोडश 14.
तत्र अद्य षोडशदिनाङ्कः.
अद्य
ह्यः कः दिनाङ्कः?
ह्यः पञ्चदशदिनाङ्कः. टुडे इस्
श्वः कः दिनाङ्कः?
सप्तदशदिनाङ्कः.
उत्तमं. परश्वः?
परश्वः अष्टादशदिनाङ्कः.
उत्तमम्. प्रपरश्वः?
प्रपरश्वः नवदशदिनाङ्कः.
नवदशदिनाङ्कः अथवा अथवा कः वदति एकोनविंशतिः उत्तमम् उत्तमम् अत्र द्वितीयं किमस्ति अत्र पश्यतु
द्वितीयम् अद्य सोमवासरः मङ्गलवासरः कदा श्वः मङ्गलवासरः
अद्य सोमवासरः अस्ति चेत् ह्यः कः वासरः
ह्यः रविवासरः
परह्यः कः वासरः
परह्यः शनिवासरः प्रपरह्यः प्रपरह्यः शुक्रवासरः
शुक्रवासरः उत्तमं तावदेव अनन्तरम्
अद्य चतुर्विंशत् अद्य चतुर्विंशत् तमदिनाङ्कः
अत्र चतुर्विंशतितम
चतुर्विंशतितम चतुर्विंशतितमदिनाङ्कः त्रयोविंशति इस् इट् भगिनि त्रयोविंशति त्रिंशति
अत्र अत्र अद्य चतुर्विंशतितमदिनाङ्कः
दिनाङ्कः
ह्यः त्रयो तत्र किं भवति त्रयोविंशतिः त्रयोविंशति आम् त्रयोविंशतितमदिनाङ्कः कदा
केवलं
न भगिनि अहं केवलं मम प्रश्नः अत्र अत्र यद् दत्तमस्ति अहं न
पठितवती
अत्र अत्र किं दत्तमस्ति अधुना पठतु
अत्र षट्विंशतिः दिनाङ्कः कदा
कदा
परश्वः परश्वः
श्वः
श्वः
श्वः किं भवति
श्वः पञ्चविंशतिः भवति परश्वः षट्विंशतिः भवति
पूर्णतया वाक्यं वदतु अद्य चतुर्विंशतितमदिनाङ्कः
अद्य चतुर्विंशतितः दिनाङ्कः श्वः पञ्चविंशति तमदिनाङ्कः परश्वः षड्विंशतितमदिनाङ्कः
उत्तमं तावदेव सम्यक् वयं सम्यक् रीत्या पठितवन्तः धन्यवादः भगिनी अधुना अहम् एकां प्रहेलिकां ददामि सर्वे चिन्तयन्तु उत्तरं वदन्तु अत्र वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः त्वग्वस्त्रधारी न च सिद्धयोगी जलञ्च बिभ्रन्न न घटो न मेघः ओ अहम् उक्तवती वा अस्ति चेत् अहम् अन्यं वदामि अत्र अन्य प्रहेलिकां वदामि अस्थि नास्ति शिरो नास्ति बाहुरस्ति निरङ्गुलिः नास्ति पादद्वयं गाढम् आलिङ्गति स्वयं पुनः एकवारं वदामि अस्थि नास्ति शिरः नास्ति बाहुः अस्ति निरङ्गुलिः पादद्वयं नास्ति परन्तु सः स्वयं गाढम् आलिङ्गति आलिङ्गनं करोति
युतकं
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 पूर्वतन प्रहेलिका समाधान किं भगिनि
युतकं भगिनि
युतकं न पूर्व प्रहेलिका भवती एव उक्तवती उत्तरं किं भगिनि अहं न जानामि
नारिकेलः
नारिकेलः अत्र अत्र भवन्तः जानन्ति एव अस्थिः इत्युक्ते अस्थिः इत्युक्ते
बोन्स्
परन्तु तस्य अस्थिः नास्ति, शिरः नास्ति, परन्तु बाहुद्वयम् अस्ति, अङ्गुल्यः न सन्ति, अङ्गुल्यः न सन्ति, परन्तु पादद्वयं नास्ति. एतावता तत् किं करोति? शरीरं दृढम्
आलिङ्गति,
शरीरम् आलिङ्गति. तत् किम् इत्युक्ते युतकम्. उत्तमम्. अधुना द्वादशवादनम् अभवत्. सर्वेषां धन्यवादः.
धन्यवादः भगिनी. ऐ हेव् अ क्वश्चन् आफ्टर् द रेकार्डिङ्ग्.
अस्तु भगिनि.